ओम नमो भगवते वासुदेवाय। अथ सप्तषष्टितमोऽध्यायः। राजोवाच भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः अनन्तस्याप्रमेयस्य यदन्यत्कृतवान् प्रभुः। श्रीशुक उवाच नरकस्य सखा कश्चिद्विविदो नाम वानरः सुग्रीवसचिवः सोऽथ भ्राता मैन्दस्य वीर्यवान् सख्युसोपचितिम् कुर्वन् वानरो राष्ट्रविप्लवम् पुरग्रामाकरान् घोषानदहद्वह्निमुत्सृजन् क्वचित् स शैलानुत्पाट्य तैर्देशान् समचूर्णयत् आनर्तान् सुतरामेव यत्रास्ते मित्रः हरिः क्वचित् समुद्रमध्यस्थो दौर्भ्यामुत्क्षिप्य तज्जलम् देशान्नागायुतप्राणो वेलाकूलानमज्जयत् आश्रमान् ऋषिमुख्यानाम् कृत्वा भग्नवनस्पतीन् अदूषयच्छकृन्मूत्रैरग्नीन् वैतानिकान् खलः पुरुषान् योषितो दृप्तक्ष्माभृद्रोणी गुहासुसः निक्षिप्य चाप्यधाच्छैलैः पेशस्कारीव कीटकम् एवम् देशान् व्यप्रकुर्वन् दूषयंश्च कुलस्त्रियः। श्रुत्वा सुललितम् गीतम् गिरिम् रैवतकम् ययौ तत्रापश्यत् यदुपतिम् रामम् पुष्करमालिनम् सुदर्शनीय सर्वाङ्गम् ललनायूथमध्यगम् गायन्तम् वारुणीम् पीत्वा मदविह्वलोचनम् विभ्राजमानम् वपुषा प्रभिन्नमिव वारणम् दुष्टशाखा मृगशाखा मारूटः कम्पयन् द्रुमान् चक्रे किल किला शब्दमात्मानम् सम्प्रदर्शयन् तस्य धार्ष्ट्यम् कपेर्वीक्ष्य तरुण्यो जाति चापलाः हास्यप्रिया विजहसुर्बलदेव परिग्रहाः ताहेलयामास कपिर्भ्रूक्षेपैः सम्मुखादिभिः दर्शयन् स्वगुदम् तासाम् रामस्य च निरीक्षतः तम् ग्राव्णा प्राहरत् क्रुद्धो बलप्रहरताम् वरः स वञ्चयित्वा ग्रावाणम् मदिराकलशम् कपिः गृहीत्वा हेलयामास धूर्तस्तम् कोपयन् हसन् निर्भिद्य कलशम् दुष्टो वासांस्यास्फालयत् बलम् कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः तम् तस्याविनयम् दृष्ट्वा देशांश्च तदुपद्रुतान् क्रुद्धो मुसलमादत्त हलम् चारि जिघांसया द्विविदोऽपि महावीर्यः शालमुद्यम्य पाणिना अभ्येत्य तरसा तेन बलम् मूर्धन्यताडयत् तम् तु सङ्कर्षणो मूर्ध्नि पतन्तमचलो यथा प्रतिजग्राह बलवान् सुनन्देनाहनच्च तम् मुसलाहतमस्तिष्को विरेजे रक्तधारया गिरिर्यथा गैरिकया प्रहारम् नानुचिन्तयन् पुनरन्यम् समुत्क्षिप्य कृत्वा निष्पत्रमोजसा तेनाहनत् सुसङ्क्रुद्धस्तम् बल शतधाच्छिनत् ततोऽन्येन रुषा जग्ने तम् चापि शतधाच्छिनत् एवम् युध्यन् भगवता भग्ने भग्ने पुनः पुनः आकृष्य सर्वतो वृक्षान् निर्वृक्षमकरोद्वनम् ततो मुञ्चच्छिलावर्षम् बलस्योपर्यमर्षितः तत्सर्वम् चूर्णयामास लीलया मुसलायुधः स बाहूतालसङ्काशौ मुष्टीकृत्य कपीश्वरः आसाद्य रोहिणीपुत्रम् ताभ्याम् वक्षस्य रुरुजत् यादवेन्द्रोऽपि तम् दोर्भ्याम् त्यक्त्वा मुसललाङ्गले जत्रावभ्यर्दयत् क्रुद्धः सोपतत् रुधिरम् वमन् चकम्पेतेन पतता सटङ्कः स वनस्पतिः पर्वतः कुरुशार्दूल वायुना नौरिवाम्भसि जयशब्दो नमः शब्दः साधु साध्विति चाम्बरे सुरसिद्धमुनीन्द्राणामासीत् कुसुमवर्षिणाम् एवम् निहत्य द्विविदम् जगद्व्यतिकरावहम् संस्तूयमानो भगवान् जनैः स्वपुरमाविशत्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे उत्तरार्धे द्विविदवधो नाम सप्तषष्टितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।